नमस्सर्वेभ्यः अद्य शिक्षावर्गस्य षष्ठः पाठः जुलै मासस्य सप्तमः दिनाङ्कः प्रार्थनया आरम्भं कुर्मः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे वयं व्याकरणांशेषु जस्तसन्धेः अभ्यासं कृतवन्तः ततः श्चुत्वसन्धेः उदाहरणानि ज्ञातवन्तः कः नियमः इत्यपि दृष्टवन्तः काव्यांशेषु केषाञ्चित् भगवद्गीताश्लोकानाम् अध्ययनं कृतवन्तः प्रहेलिका काचित् दृष्टा विराजराजपुत्रारेः यन्नाम चतुरक्षरम् इत्यत्र ततः अन्धपङ्गुन्यायः अपि अवगतः श्चुत्वसन्धिः सकारः अथवा तवर्गः भवति तस्य शकारः अथवा चवर्गस्य शकारस्य चवर्गस्य वा सम्बन्धः भवति चेत् सकारस्य स्थाने शकारः भवति तवर्गस्य स्थाने चवर्गस्य वर्णाः क्रमशः आदेशाः भवन्ति इति श्चुत्वसन्धेः नियमः आसीत् सकारस्य शकारः तकारस्य चकारः दकारस्य जकारः नकारस्य ञकारः इत्येवं क्रमशः तवर्गवर्णानां चवर्गवर्णाः आदेशरूपेण भवन्ति इति श्चुत्वसन्धिः तत्र अभ्यासस्य उदाहरणानि आसन् पश्यामः ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु अविनाश वैद्य
गुड मॉर्निंग मैडम नमस्कार शिशुस प्लस शेते श भवति सो इट टेक्स फॉर्म एज शिशुस शेते
शिशुस
शेते
करेक्ट शिशुस शेते
रामस शालाम सकार शकार भवते हियर आल्सो सेम थिंग सो रामस शालाम
रामस शालाम
राम शालाम
सम्यक् उभयत्रापि सकारस्य स्थाने शकारः
सकारस्य
रामस शालाम गच्छति सो अर्थः तु अस्य ज्ञायते इति भावयामि शिशुः शेते शेते निद्राति इत्यर्थः सो रामः शालां गच्छति वाक्यं पूर्णं नास्ति लता शेखरन्
सन् प्लस् जयः सञ्जयः इञ्ज् सो सञ्जयः
सञ्जयः नकारस्य स्थाने चवर्गस्य पञ्चमः वर्णः सञ्जयः
सत् प्लस् जनः सज्जनः तकारः
तकारस्य स्थाने जकारः भवति वा
यस् तकारस्थाने जकारः सज्जनः
भवति श्रुत्वसन्धेः नियमानुगुणं तकारस्य स्थाने चकारः भवेत् किल.
सज्जनः
रूपं तु शुद्धमेव, सज्जनः इत्येव भवति. कथं भवति नियमानुगुणं तकारस्य चकारः किल भवेत्?
Then chakarah in front of jakarah becomes ja. That is just jashva sandhihi, right?
Sambik. Adau jashtvam. Takarasya sthane dakarah bhavati. Tataha takarasya shchutvam bhavati jakarah. So sajjanah. Iti sambik. Mahalakshmi.
नमस्ते. तत् छाया तकारस्य स्थाने चकारः भवति. तच्छाया
तकारस्य स्थाने चकारः भवति. तच्छाया इति भवति.
एतत् तश्च एतच्च
अत्रापि तकारस्य स्थाने चकारः भवति. सम्यक्. श्रीराम कृष्णमूर्ति.
नमस्ते. सुप्रभातम्.
सुप्रभातम्.
सत् प्लस् चित् इत् स्थाने इच् भवति.
सच्चित् सत् चित् सच्चित् चकारस्य चकारः.
तत् प्लस् ज्वलति चकारस्य स्थाने चकारस्य भवति. च इज् भवति, ज भवति. तज्ज्वलति
तज्ज्वलति
तज्ज्वलति.
So, आदौ जष्ट्वम् अनन्तरं श्चुत्वम्. सो तद् ज्वलति ततः दकारस्य जकारः. तज्ज्वलति. सम्यक्.
धन्यवादः.
वरुण विश्वनाथन्.
श्रूयते वा?
श्रूयते.
विद्युत् जिह्वः तकारस्थाने जकारः भवति. विद्युज्जिह्वः
विद्युज्जिह्वः. स्वत्रापि तकारस्य आदौ जष्ट्वं भवति दकारः. विद्युद् जिह्वः. ततः श्चुत्वं भवति विद्युज्जिह्वः.
अस्तु अस्तु. बृहत् छत्रं तकारस्थाने चकारः भवति. बृहत् छत्रं
बृहत् छत्रं. सम्यक्. तकारस्य चकारः भवति. धन्यवादः. बृहच्छत्रम्. सो पदानि सरलानि एव सन्ति. सच्चित् ज्ञायते, सच्चिदानन्दः. सत् चित् आनन्दः इति वेदान्ते प्रसिद्धं. तत् ज्वलति. विद्युज्जिह्वः. सो विद्युज्जिह्वः इति पुराणेषु कश्चित् असुरः अस्ति. विद्युज्जिह्वः रामायणस्य पात्रमस्ति. सो वस्तुतः अर्थः तु जिह्वा विद्युदिव. सो टङ्ग् लैक् लैट्निङ्ग्, लैट्निङ्ग् टङ्ग् इति अर्थः पदस्य. कस्यचित् नाम अस्ति बृहच्छत्रं. बृहत् छत्रम्. अग्रिमः अभ्यासः यत्र सन्धेः विच्छेदः कर्तव्यः. वीरभद्रराव महोदय.
गुड् मार्निङ्ग्. केन् यु हियर् मी?
श्रूयते. वदतु.
विष्णु चालयति. विष्णु विष्णु सकार चालयति. विष्णु चालयति.
सकारस्य चकारे परे षकारः भवति.
गुणिञ्जयः गुणिन प्लस्येह नकारस्थाने जकार भवति
न्यकारः च च न्यकारः भवति सम्यक् वेणु
हरि ओम् भगिनि श्रूयते वा
हा श्रूयते
शरद् ज्योत्स्ना शरद् प्लस् ज्योत्स्ना देन् श्रुत्वसन्धिस्त शरद् प्लस् ज्योत्स्ना देन् इट् बिकम्स् शरद् ज्योत्स्ना
सो तकारस्य जकारे परे मृदु व्यञ्जनम् अतः आदौ तकारस्य दकारः भवति जस्त्वम् ततः दकारस्य जकारे परे जकारः भवति श्चुत्वम् शरज्योत्स्ना शरत्कालस्य ज्योत्स्ना ज्योत्स्ना नाम कौमुदी मून्लैट् गतवर्गे दृष्टम् शरच्चन्द्रः शरत्काले चन्द्रः आकाशः शुभ्रः भवति अतः चन्द्रः सम्यक् प्रकाशते शरत्कालस्य ज्योत्स्ना चन्द्रिका अपि अत्यन्तं प्रकाशवती भवति
नेक्स्ट् वन् सुहृत् जटायु तत्रापि जस्व सुहृत् त बिकम्स् दकार सुहृत् देन् श्रुत्वसन्धि बिकम्स् दा बिकम्स् जा सुहृत् जटायु
सुहृत् जटायुः सो सुहृत् जटायुः समानरीत्या जकारः भवति सम्यक् विजयश्री
नदी प्लस् जा सु बिकम्स् शा नदीश्चकारस्य
शकारः भवति नदीस् च नदीश्च
थैंक यू अन्यत् छत्रं त एंड छ बिकम्स् छ अन्यत् छत्रं
तकारस्य स्थाने चकारः चकारः भवति अन्यत् छत्रं सम्यक्
थैंक यू
स्वयं प्रभा You have to unmute yourself.
Yes, sir, has muted me.
Ah.
Oh, okay. Vipat cha. Vipat cha.
Vipat cha. Takarasya chakara bhavati vipat cha.
Sat. Shakti.
Sat shaktihi. सो तकारस्य चकारः भवति सच् शक्तिः सम्यक् धन्यवादः महेश्वरी
नमस्ते भगिनि
हा
उच्चाटनं उत् प्लस् चाटनं इत् प्लस् इच् उच्चाटनम्
उत् चाटनम् उच्चाटनम् तकारस्य चकारः
तज्जीवनम् तत् प्लस् जीवनम् इत् प्लस् इज् पूर्वम् इत् इत् प्लस् इज् इज् भवति
अनन्तरं
दकारस्य जकारः भवति अनन्तरम् अपि अस्ति
तदेव आदौ तकारस्य दकारः तद् जीवनं जष्ट्वं भवति ततः दकारस्य जकारः भवति तज्जीवनम् धन्यवादः सो एतानि श्चुत्वसन्धेः उदाहरणानि ज्ञातानि पुनः पश्यामः श्चुत्वसन्धेः नियमः आसीत् सकारस्य अथवा तवर्गस्य शकारे चवर्गे परे शकारः अथवा चवर्गः आदेशः भवति. सो दिस् आदेशस्य श्चु इति नाम भवति. श अस्ति, चु इत्युक्ते चवर्गः. व्याकरणशास्त्रे कु इत्युक्ते कवर्गः, चु इत्युक्ते चवर्गः इत्येवं व्यवहारः अस्ति. सो श चु श्चु इति आदेशः भवति, अतः श्चुत्वसन्धिः इति उच्यते. अग्रिमः सन्धिः भवति ष्टुत्वसन्धिः. अत्यन्तं सदृशमस्ति. सो वेरि वेरि सिमिलर् टु श्चुत्वसन्धि. सो श्चुत्वसन्धिः श्चुत्वसन्धौ श्चु अस्ति, शकारः चवर्गः. सो तत्रैव शकारः टवर्गः अस्ति चेत् ष्टुत्वम् इति कथ्यते. श टु ष्टु ष्टुत्वम्. सो सकारः तवर्गः, तस्य शकार टवर्ग सम्बन्धे. सो यदा शकारः अथवा टवर्गः भवति तदा सकारस्य शकारः तवर्गाक्षराणां टवर्गाक्षराणि भवन्ति, तस्य ष्टुत्वम् इति नाम. सो अयं सन्धिः ष्टुत्वसन्धिः. उदाहरणानि पश्यामः. मल्लिनाथेन कुमारसम्भवस्य बृहट्टीका लिखिता. सो बृहत् टीका इत्यत्र तकारस्य तकारे परे तकारः आदेशः भवति. सो तकार रिप्लेस्ड् बै तकार. बृहट्टीका. सो मल्लिनाथ कम्पोज्ड् अ ह्यूज् कमेण्टरि आन् द कुमारसम्भव. सः उट्टङ्कनं करोति. सो उट्टङ्कनम्, उत्टङ्कनम्, उट्टङ्कनम्. सो तकारस्य टकारः भवति टकारे परे. सो पतङ्गः आकाशे उड्डयते. सः उट्टङ्कनं करोति. उट्टङ्कनं टैपिङ्ग् इत्यर्थे उपयुज्यते. सो हि टैप्स् इत्यर्थः. पतङ्गः आकाशे उड्डयते. उद्डयते, उड्डयते. दकारस्य स्थाने डकारः भवति. सो उद्डयते, उड्डयते, उड्डयते. पतङ्गः it can be a moth or the kite is also called patanga. Flies in the sky, uddayate. So flies up in the sky ityartha. Ramena dhanushtankaraha krataha. Dhanushtankaraha, dhanushtankaraha. सकारस्य षकारः भवति. सो स इस् रिप्लेस्ड् बै ष. धनुष्टङ्कारः, धनुष्टङ्कार. टङ्कार इस् द ट्वाङ्ग् आफ् द बो. सो राम ट्वाङ्ग्ड् साउण्डेड् हिस् बो बै फ्यू पुल् द स्ट्रिङ्ग् आफ् द बो एण्ड् रिलीज़् इट्. सो देर् इस् अ साउण्ड् दट् इस् काल्ड् टङ्कारः. कन्या षोडश कूपात् जलम् आनयन्ति. कन्या षोडश इत्यस्ति. कन्यास् षोडश, सकारस्य षकारः भवति. कन्या षोडश. सो कन्या षोडश, षोडश सिक्स्टीन्, सिक्स्टीन् गर्ल्स्. कूपात् जलम् आनयन्ति, bring water from the well. बालिका षोढा विभक्ताः स्वत्रापि बालिकास् षोढा सकारस्य षकारः आदेशः भवति बालिकाश् षोढा बालिकाः षोढा विभक्ताः अर्थः भवति षोढा षोढा मीन्स् इन् सिक्स् वेस् षट् प्रकारेण इत्यर्थः सो द्विधा त्रिधा चतुर्धा इत्यादि धा इति प्रत्ययः भवति सो प्रकारः इत्यर्थः षट् प्रकारेण सो दे वर् डिवैडेड् इन् सिक्स् वेस् और् इन् टु सिक्स् ग्रूप्स् इत्यर्थः बालिकाः षोढा विभक्ताः पतड्डमरुकं सः गृहीतवान् पतद् डमरुकं पतड्डमरुकं सो दकारस्य स्थाने डकारः भवति पतद् डमरुकं पतड्डमरुकं सो पतड्डमरुकं सो डमरुकं इस् अ स्माल् ड्रम् द हेण्ड् होल्ड् ड्रम् शिवस्य हस्ते डमरुः भवति सो पतड्डमरुकं द फालिङ्ग् ड्रम् सः गृहीतवान् हि काट् द फालिङ्ग् ड्रम् तद् डोलायमानम् अस्ति तद् डोलायमानं तड्डोलायमानं दकारस्य डकारः भवति तड्डोलायमानं सो दट् इस् स्विङ्गिङ्ग् सो डोलायमानं डोला इस् अ स्विङ्ग् सो डोलायमानं सो दट् इस् स्विङ्गिङ्ग् इत्यर्थः एवं ष्टुत्वसन्धेः अयं नियमः सो सकारः अथवा तवर्गः भवति तस्य षकारे तवर्गे वा परे सकारस्य षकारः भवति तवर्ग अक्षराणां क्रमशः तवर्ग अक्षराणि आदेशरूपेण भवन्ति सो दिस् इस् ष्टुत्वसन्धि कन्यास् इत्युक्ते किं कन्याः सो अत्र सर्वत्र यत्र सकारः भवति तत्र वस्तुतः पूर्वं विसर्गः भवति सो एव्रिवेर् द विसर्ग बालिकाः कन्याः सो विसर्गस्य आदौ सकारः भवति यथा हरिष्येते हरिश्येते हरिः इत्यत्र विसर्गस्य स्थाने सकारः एवमत्रापि बालिकाः विसर्गस्य सकारः कन्याः विसर्गस्य सकारः ततः सकारस्य षकारः सो दिस् सन्धि ष्टुत्वाष्टुत्व इस् द सेकेण्ड् स्टेप् ततः पूर्वं विसर्गसन्धिः भवति सो विसर्गसन्धेः अध्ययनं वयम् अनन्तरं कुर्मः प्रश्नाः सन्ति वा सो एकः प्रश्नः अस्ति द लेटर्स् नीड् नाट् बीन् एनी आर्डर् एस् लाङ्ग् एस् दे आर् नेक्स्ट् टु ईच् अदर् आम् श्चुत्वसन्धौ ष्टुत्वसन्धौ च सो इट् केन् बि रिवर्स् पूर्व एण्ड् पर सो यु केन् हाव् फस्ट् सकार एण्ड् देन् षकार आर् फस्ट् षकार एण्ड् देन् सकार ईदर् वे इट् इस् सकार विच् इस् converted to shakara अन्यः प्रश्नः षोडश Kupat. Is it 16 wells or 16th well? Neither. It says 16 refers to the Kanyaha. 16 girls bring water from the well. So, Shodasha iti Kanyaha ityanena sambadhyate. Shodasha Kanyaha Kupat Jalam Anayanti. So, 16 girls bring water from the well. So, Sandhehe Udaharanam Pashyamaha. So Balas Shashtaha. So Sakarahasti Shakarahasti. So Sakarasya Shakaraha Adeshaha Bhavati. So Balash Shashtaha. Balash Shashtaha iti Rupam Bhavati. So Brihat Tika. So Takaraha Takaraha. So takarasya sthane takaraha adeshaha bhavati. Brihat tika iti rupam. Atra pashyantu purvam shakaraha asti anantaram takaraha asti. So kenachit prashnaha prashtaha. So adau shakaraha anantaram takaraha tadapi takarasya sthane takaraha bhavati. Akrishtaha iti rupam bhavati. Right? So whether the sha or tavarka purvam api bhavitum arhati, paraha api bhavitum arhati. So sakarasya shakaraha bhavati, tavarga varnanam, tavarga varnaha adeshaha bhavati. Abhyasam kurmaha evaktum icchanti. So anye api prayatnam kartum arhanti. So it will be nice if others also try. I mean, these are fairly easy, I guess. So akrishtaha ityasya kaha arthaha. Akrishtaha, attracted. Krishi is literally to drag, karshati. So akarshati is to attract. Akrishtaha, that which was attracted, ityartha. Ram, Ram,
namaste. The second one, Uttanganam. Plus tanganam, uttanganam.
Uttankanam, dvitiyam.
Sharat dambaraha. Sharat dambaraha. That is, Sharat dambaraha. Takarasya dame. Dakaraha bhavati, then dakaraha bhavati. Third one, Sharad Dambaraha.
Sharad Dambaraha. Yeah. The beauty of Sharat Kala. Sharat Kalasya Dambaraha. Dambaraha is used for beauty. So Sharad Dambaraha. Rajesh Nayak. Drishyateva, Atina, Rajesh Nair Mahe.
Drihat plus Dindimaha. dakarasya sthane dakaraha dakaraha bhavati brihat dintimaha chaturtham.
There must be some error because both of them are the same.
Yes. Dvitiya.
I mean, both of them were the same.
Yes.
So
okay.
Your answer was correct. Shan naam.
Shan plus naam.
नकारः अस्ति नकारस्य णकारः भवति षण्णाम्
षण्णाम्
धन्यवादः षण्णाम् आफ् सिक्स् षड् इत्यस्य षष्ठी विभक्तौ षण्णाम् इति भवति तत्र नकारस्य णकारः भवति श्रुत्वेन रामकृष्णराव
बृहत् अङ्कशाला बृहत् फस्ट् वन् बृहत् 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 संस्कृताल फस्ट् वन्
फस्ट् वन् तकारः अस्ति
बृहत् सेकेण्ड् वन्
बृहत् टङ्कशाला
तकार तकार भवति
तकारः भवति बृहत् टङ्कशाला टङ्कशाला इति यूस् फार् द मिण्टिङ्ग् प्रेस् वेर् कायिन्स् आर् मिण्टेड् सो बृहत् टङ्कशाला अ ह्यूज् मिण्टिङ्ग् प्रेस् इस् काल्ड् बृहत् टङ्कशाला
फोर्थ् वन् सर् प्लस् टीका फोर्त् वन् चतुर्थ
चतुर्थं वा टीका श्योर् टीका
फस्ट् वन् तट्टीका
तट्टीका
टीका
धन्यवादः शेखर् पाण्डे
श्रूयते वा महोदय
श्रूयते
अत्र चतुर्थ
टादिः सकारस्य षकारः भवति टवर्गष्टादिः
अस्तु तृतीयः
तृतीयं मरुद् डिण्डिमः मरुड् डिण्डिमः तृतीयम् देवनाथन्
टिप्पणि तकारस्य तकारः भवति
तत् टिप्पणि सक् टिप्पणि
दकारस्य दकारः भवति चतुर्थं
सम्यक् धन्यवादः अग्रिमं पश्यामः अत्र सन्धेः विच्छेदः कर्तव्यः टु स्प्लिट् द सन्धि अन्ये केऽपि वक्तुमिच्छन्ति Those who have not tried anything so far. Like, they're all very easy ones, and there's nothing wrong in getting something wrong. Right? So it is just an attempt. So it is absolutely fine.
Shweta Mahode?
Shweta.
Etat tika, etat plus tika, the chaturtha.
Chaturtham. Etat tika, takarasya takaraha, etat tika.
Shnavatihi. Shani. Shashnavatihi. Shashnavatihi.
Shashnavatihi.
Chaturtha.
Actually becomes Shad Navatihi. I mean, you are correct. Shashu Navati. Never mind, because that's a series of sandhis. Adau Shashu Navatihi Ti Bhavati. Tataha Shad Navatihi. And then there is actually one more sandhi which will happen there. Shan Navatihi. And finally, Shan Navatihi. So, you can try this one.
Bhavet Tankanam. Bhavet Tankanam. Chaturtham iti.
Bhavet Tankanam. Bhavet Tankanam. Samyak. Ramesh.
Namaste. Shruyate va?
Shruyate.
Chakrin plus...
Chaturtham. Chaturtham. Dakaraha, Dakaraha. Ubhayamasti va?
Tritiyam.
Tritiyam. Dhaukase. Dakaraha asti. Nakarasya, Nakaraha. Chakrin dhaukase. Chakrin dhaukase. So, dhaukase ityasya gachasi ityarthaha. Chakrin iti sambodhanam. Krishnasya, hey Krishna, tvangachasi ityartha.
Bayakrit dhamaraha. Bayakrit plus dhamaraha. Dvitiya.
Bayakrit dhamaraha. Bayakrit dhamaraha. Dvitiya. So, dhamaraha is usually a disease which spreads. What do we call it? Something like plague, which spreads very fast through the community and destroys, is called a dhamara. Tattakaraha.
Tat plus takaraha, dvitiya.
Tattakaraha. Samyak. Tathakaraha. Next. Padmanabhan. Yes.
Namaste. Syat Dayanam. Syat Dayanam. That would be Syat Dayanam. That would be the Prathamam group.
Prathamam. Syat Dayanam. Syat Dayanam.
Abhavattaraha. Again, abhavat tattaraha. That would be prathamam again.
Abhavat tattaraha. So, tattara is just a sound. Something which is, we make such avyakta shabda, taratara ityadi. So, abhavat tattaraha. Dhanyavadaha. Nandakumar.
Namaste. Asakrit dayanam. Tridiyam. Asakrit dayanam.
Asakrit dayanam.
Edadimbhaha.
Patadimbhaha.
Patadimbhaha. Prathamam. Patadimbhaha.
Patadimbhaha. Patadimbhaha. Samyak. Atra sthagayamaha bahuni udaharanani drashtani shtutva sandhehe. So, atra kaschit prashnah. Isn't it syat and not syad? Tatra bahutra yatha shtutva sandhau drishtam tatha jashtvam shtutvam ubhayam bhavati. So, ut tankayati. Yadi takarahaste tarhi takarasya sakshat shtutvena takaraha bhavati ut tankayati uttankayati. Iti bhavati. So, uttankana is to type. Kintu ut dayate ityasti chet adau takarasya dakaraha bhavati jashtvam bhavati ud dayate tataha shtutvam bhavati dakarasya dakaraha uddayate. Right? So this was similar to shtutva sandhi. Yadi mridu vyanjanam asti tada adau takarasya dakaraha bhavati anantaram shtutvam bhavati. So first, if it is possible to apply jashtva, we always apply jashtva first, right? So similarly, tat tika. So takaraha stite sakshat takarasya takaraha tat tika iti bhavati. Tat damaruhu stite adau takarasya dakaraha, this is jashtvam bhavati. Tataha dakarasya dakaraha bhavati shtutvam bhavati taddamaruhu iti bhavati. Shtutva sandhihi. So I hope it is clear. Abhyasaha diyante. So abhyase trayaha api sandhayaha bhavanti. So today's exercise will have all three sandhis that we have covered. Jashtva, Shtutva and Shtutva. So, you have to identify the sandhi also. So, atra ekaha prashna hasti, Shtutva sandhehe vishaye, purvam. How to differentiate J and the anunasika of Chavarga. Jakaraha asti, Chavargasya panchamaksharam bhavati, Nya. Jajh, jajh, nya. Tasya uccharanam api nya ityeva, nja iti na bhavati. So, the fifth letter is an anunasika, a nasal letter. Cha, cha, jajh, nya iti uccharanam bhavati. So, I assume that question was about the uccharana. Sheetal Shah. Uccharanasya vishaye va prashnam.
No, by writing.
While writing it is a different letter, right? So so jakaraha evam likhyate, nya is this. So nya has a reverse C. So a C which is horizontally, this one. So nyakaraha bhavati. So even a half letter would be like this. So ja is written with a cup like thing with a horizontal line.
Yes.
So ja is this, whereas nya is, so here the cup is downwards and here it is sideways.
Yes. Okay. Thank you.
So, agre gachhamaha. So, kavyam shaha. So, Bhagavad Gita yaha shlokaha santi, so tesham anvayadikam purmaha. So, ayaneshu cha sarveshu yathabhagam avasthitaha bhishmam eva abhirakshantu bhavanta sarva evahi iti shlokaha. So, Duryodhanaha dronacharyam vadati. Right. So, we have been seeing Duryodhanaha pandavanam sainyam दर्शयति प्रदर्श्य अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं त्रिदमेतेषां बलं भीमाभिरक्षितं सो भीष्मेण रक्षितं अस्माकं सैन्यम् अपरिमितम् अस्ति एतेषां सैन्यं तु परिमितम् अस्ति अतः आदौ भीष्मस्य रक्षणं कुर्वन्तु इति वदति यतोहि भीष्मः एव सेनायाः मुख्यः सेनानीः अस्ति अतः तस्य रक्षणं कुर्वन्तु इति द्रोणं कथयति दुर्योधनः किशोर
सुप्रभातम् तदचेदः अयनेषु च सर्वेषु यथा भागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि अयनेषु इस् अकारान्त नपुंसलिङ्ग बहुवचनं
व्याकरणांशान् अन्ते पश्यामः सो वाक्यस्य विश्लेषणं काः विभक्तयः सन्ति प्रथमा विभक्तौ किमस्ति अथवा क्रियापदं किं भवति अत्र
अभिरक्षन्तु इति क्रियापदम्
अभिरक्षन्तु इति क्रियापदम् प्रथमा विभक्तिः
वन् सेकेण्ड् ऐ हेव् राइटेड् इट् डौन् वन् सेकेण्ड् गोयिङ्ग् टु द राइट् प्लेस् अन्वयः अभिरक्षन्तु इति क्रियापदं के अभिरक्षन्तु भवन्तः अभिरक्षन्तु भवन्तः सर्वे अभिरक्षन्तु कियन्तः अभिरक्षन्तु भवन्तः सर्वे अभिरक्षन्तु कीदृशाः भवन्तः सर्वे अभिरक्षन्तु अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु कथम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु यदा भागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु कुत्र अभिरक्षन्तु अयनेषु अभिरक्षन्तु कतिषु अभिरक्षन्तु सर्वेषु अभिरक्षन्तु
सर्वेषु अयनेषु कतिषु अथवा केषु अयनेषु सर्वेषु अयनेषु
इस् कतिषु राङ्ग् आर् केषु केषु सर्वेषु
इस् यूजुवलि यूस्ड् इफ् इट् इस् अ नम्बर् तदपि आल् इति भवितुम् अर्हति चिन्ता नास्ति
ओके सर्वेषु अयनेषु कमेव अभिरक्षन्तु सर्वेषु अयनेषु सर्वे भीष्मम् एव अभिरक्षन्तु
अभिरक्षन्तु सम्यक्
तात्पर्यं भवन्तः सर्वेपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु सेनाधिपतिं भीष्मं च रक्षन्तु
सम्यक्
व्याकरणविशेषः अयनेषु अकारान्त नपुंसकलिङ्ग सप्तमी वचन सप्तमी विभक्ति बहुवचन सर्वेषु अकारान्त पुंलिङ्गं सर्वनामं सप्तमी विभक्ति बहुवचनम्
इदमपि नपुंसकलिङ्गं बिकास् अयनेषु इत्यस्य विशेषणम्
अवस्थिताः अकारान्त pumlinga pradhama bahuvachanam eva avyayam bhavantaha it is from bhavat so takaranta pumlinga pradhama bahuvachanam he is avyayam cha is avyayam yadha bhagam I am assuming it is avyayam I'm not sure
avyayam avyayi bhava samasah yatha bhagam ityapi avyayam
bhishmam akaranta pumlinga dvitiya vibhakti ekavachanam abhirakshantu it's a kriya adhi is the root sorry raksha is the root abhiraksha parasmaipadi lot lakara prathama purusha bahuvachanam
samyak
sarve is akaranta pumlinga sarvanama prathama vibhakti bahuvachanam
samyak uttam
and the sandhi here is eva abhirakshantu eva plus abhirakshantu savarna dirgha sandhi sarva eva is also a sandhi but I thought the sarve eva yantavanta this sandhi some of the sarve eva is becoming sarva eva I think there is a prakriti bhava there
not prakriti bhava so sarve eva
sarve eva yalo is it yalopa sarve eva
correct so sarve eva yada yantavanta deshah bhavati tada sarvaya eva so like you have hare e haraye iti prasiddham udaharanam bhavati antavanta desha santihi so sarve eva sarvayu eva ekarasya yakarah bhavati tataha yakarasya lopah bhavati so yakara is deleted so it becomes sarva eva
thank you there are couple of krudantas here krudanta avastitah it is from it's a kattari form from ta and ayaneshu it is I from I it is it's the krudanta
ayanam in gatau ityasya gatam samyak dhanyavadah sarve eva so sandhihi yantavanta desha sandhihi so it's a special thing yada yantavanta desha sandhi padasya ante bhavati tada tatra yakarasya lopah bhavati so sarve eva sarvayu eva sarva eva so etat drashtavyam yadi sarvah eva ityasti tatrapi sarva eva ityeva bhavati so whether we have sarvah eva or sarve eva ubhayatrapi sarva eva ityeva bhavati the final form is sarva eva so sarvah eva tatra visarga sandhihi asti tatrapi yakarah bhavati yakarasya lopah bhavati ubhayatapi sarva eva ityeva rupam bhavati so is it sarve eva or sarvah eva tattu prasangatah gyatavyam so you have to know the context to understand atra bhavantah iti bahuvachanam asti avasthitah bhavantah sarve ityeva upayujyate so since there is bahuvachana of avasthitah and bhavantah we take it as sarve eva and not sarva eva it is not pararupa pararupam na so pararupa is an ekadesha it's a different sandhi so atra sarve eva yantavanta desha sandhihi itseva vaktavyam right so it is yantavanta desha sandhi followed by lopa of yakara so sarve eva itseva sandhihi so saha prathamah dasman so eta drishtam so sarveshu ayaneshu yathabhagam avasthitah bhavantah sarve eva bhishmam eva abhirakshantu iti vakyasya anvayah So sarveshu ayaneshu. So ayanam vyuhasya dvaram ityarthaha. So ayana shabdasya samanyataha margaha ityarthaha. So ramasya ayanam ramayanam ityadishu. So path ityarthe. Atratu vyuham vyuhaha yada kriyate sainyasya. Tatra there are entry points in the vyuha. They are called ayana. They are the strategic points in the vyuha at which an enemy might try to enter. Ataha vyuhasya dvara pradeshesu. So yatra yatra vyuhasya evam dvarani santi. So tatra yathabhagam avasthitaha. Bhagam anatikramya. So not going beyond your position. Ityarthaha sarvesham yada vyuhasya rachana kriyate tada sarvesham yodhana sthanam nirdishtam bhavati atra sthitva dronena yodhavyam tatra sthitva bhishmena anyatra sthitva duryodhanena iti ataha yathabhagam avasthitaha staying in your places. So bhishmasya rachanartham anyatra gantavyam iti na bhavantaha svasthane bhutva कुत्र स्वस्थाने व्यूहस्य द्वार प्रदेशेषु स्वस्वस्थाने भूत्वा भवन्तः सर्वे भवन्तः इति द्रोणः अन्ये सर्वेपि नायकाः यान् नायकान् दुर्योधनः उक्तवान् सो भवन्तः सर्वे अपि भीष्मम् एव अभिरक्षन्तु सो अस्माकं सेनाधिपतिः भीष्मः सो तं रक्षन्तु तं पालयन्तु यथा भीष्मस्य भीष्मस्य उपरि आक्रमणं न कुर्वन्ति तथा रक्षन्तु इति दुर्योधनस्य कथनम् सो सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे एव भीष्मम् एव अभिरक्षन्तु द्विवारम् एवकारः अस्ति सर्वे एव सो आल् आफ् यू विथौट् एन् एक्सेप्शन् Bhishmam eva. So the focus is on Bhishma as the commander of the army. So Vyakaranam Shaha Jnataha iti Chintayami. Kepi Prashnaha Santiva Asmin Shloke. Sarveshu Ayaneshu. So Vyuhasya Sakaleshu Dvara Pradeshesu Yatha Bhagam. So, swasthane, avasthitaha, tishthantaha, bhavantaha sarve. So, yuyam sakalaha api, bhishmam eva. So, senadhipatim, pitamaham eva, abhirakshantu, palayantu, ityarthaha. Prashnaha? अग्रिमं श्लोकं पश्यामः तस्य सञ्जनयन् हर्षं पुरुवृद्धः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् सो यदा दुर्योधनः द्रोणस्य समीपं गत्वा एवं कथयति तदा तत्रैव भीष्मः अस्ति सः शङ्खनादं करोति शङ्खनाद इण्डिकेट्स् द बिगिनिङ्ग् आफ् द वार् or the battle. Right? So Shankhanadam Vinadya, Simhanadam Vinadya, Shankham Dadhmo. Vijayashri.
पदविच्छेदः नमस्ते तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दद्मौ प्रतापवान् सन्धि विनद्य उच्चैः गुणसन्धि थैंक यू देन् व्याकरण विश्लेषणं दध्मौ क्रियापदं प्रथमाविभक्त्यन्त पदाः सञ्जनयन् कुरुवृद्धः पितामहः प्रतापवान् तृतीया harsham simhanadam shankham
Shastita
tasya vinadya I'm thinking it's vij upasarga lyabantaha avyayam
lyabanta avyayam samyak
yeah. Uchchaihi also is avyayam
avyayam
yeah then anvaya rachana dadmau kriya padam kaha dadmau pitamahah dadmau kidrushah pitamahah kuruvruddhah pitamahah punah kidrushah pratapavan kuruvruddhah kim kurvan dadmau sanjanayan dadmau kam sanjayanan harsham sanjanayan kasya harsham tasya because he wants to make Duryodhana happy. So, it's the same Duryodhanasya. Kadham dadmau. Uchchaihi dadmau. Kim kritva dadmau. Vinadya dadmau. Kam vinadya. Simhanadam vinadya.
Babu uttama. Sammi.
Then, Vyakaranansaha. Ansaha. Dadmau. I'm just guessing dad is Kriyapadam. I don't know. I'm right or wrong.
Dhma iti dhatu.
Sorry?
Dhma.
Dhma. Okay, thank you.
Dhamati. Dhamati iti shabda agni sanyoga yohu. It is to blow. Either you blow a fire or to blow a conch. So, shabde. So, dhamati iti latlakare bhavati. Dhma dhatu.
Oh, thank you. Thank you. Then, Sanjanayan.
Tasya lakaraha.
Sorry. Dadmau. I'm sorry, I'm not getting it.
Lit lakaraha prathama purushaha ekavachanam. Yeah. So like yeah. Babhuva. So dadmau. So lit lakara, the past tense, it is used when you haven't directly seen the event. So when you are describing something which you have not directly seen. So past tense. Dadmau. Litlakaraha. Dhma dhatuhu parasmaipadi tasya litlakare prathama purushe ekavachanam.
Okay. Thank you. Then kuru vruddhaha akarantaha pumlingaha pradhama ekavachanam. Same. Pitamaha also is same. Akarant pumlinga pradhama ekavachanam. Pratapavan nakarantaha napumsakalingaha pradhama vibhakti ekavachana
yes nakarantaha pullingaha pratapavat nakarantaha pullingaha so prathama vibhakto pratapavan pratapavantau pratapavantaha
okay yeah thank you then harsham this is makarantaha Tum.
Harsha. Harsham, like Ramam. Harshaha.
Harshaha, okay. Akarantaha, Pumlingaha, Dvivachanam. Dvitiya Vibhakti Ekavachanam.
Samyak.
Simhanadam. This is also Simhanadaha.
Samyak.
Akarantaha, Pumlingaha, Dvitiya Vibhakti Ekavachanam. Then, Shankham. Again, I'm guessing Shankaha, Akarantaha, Pumlingaha, Dvitiya Vibhakti, Ekavachanam. Then Tasya, Dakarantaha, Pumlingaha, Tadshabdaha, Shasti Vibhakti, Ekavachanam. Vinadya, Uchchaihi, they are Avyayani. I don't know how do you say it.
Avyayam eva. Avyayam eva. Sanjanayanna.
Sanjanayan. I'm not able to get that. Not sure.
Like Pratapavan. Sakarantaha pullingaha prathama vibhaktihi ekavachanam. So Sanjanayat iti pratipadikam. Sanjanayan, Sanjanayantau, Sanjanayantaha.
Okay, thank you.
Dhanyadaha. Samyak uktam.
Then,
sorry. Yes?
Afterwards, okay, that's it, yeah, thank you.
So, shankham dadhmau, right? So dadhmau shabdam kritavan ityarthaha. So kim dadhmau, kaha dadhmau, pitamahaha. So kauravanam pandavanam cha pitamahaha. Kuru vrithishmaha ityarthaha. Kuru vrithaha, kurushu vrithaha, jyeshthaha. So kuru kauravanam jyeshthaha pratapavan. So pratapavan atyantam parakrami. Sadrishaha bhishmaha shankham dadhmau. So shankhasya shankhanadam kritavan ityarthaha. So king kurvan sanjanayan utpadayan. So creating kim utpadayam harsham santosham utpadayan. Kasya tasya duryodhanasya santosham utpadayan bhishmaha kurunam jyeshthaha parakrami bhishmaha shankhanadam kritavan. Kim kritva uchaihi simhanadam vinadya. Vinadya, so vinadya is again nadati shabdam karoti itkeva arthaha. So simhanadaha, simhaha iva nadaha. So it is a battle cry. Simhanada is a roar, roaring like a lion. So simhanada is a war cry. So simhanadam vinadya. So uchaihi shabdam kritva itkeva artha. So uchaihi is loudly. So taraswarena simhanadam vinadya, simhanadam kritva shankham dadhmau, shankham vaditavan. So he blew his conch. Okay. So punaha vadami pratapavan parakrami kuruvriddhaha kuruvamshasya jyeshthaha pitamahaha bhishmaha tasya duryodhanasya harsham anandam sanjanayan utpadayan uchaihi taraswarena simhanadam. Simhanadam ityasya anyaha anyat padam nasti. Simhanada is a pada. So simhanadam vinadya kritva shankham swasya shankham dadhmau naditavan ityartha. So the net kimasti. So tatra vyakaranam shaha dadhmau. So dadhmau shabdam karoti nadayati iti vaktum shakyate athava shankham vadayati. So ityartha. So vinadya is making a sound. Nada shabde simhanadam vinadya. So there is two, it's a repetitive usage. It suits Sanskrita, but you cannot translate it exactly. So simhanada itself is a sound, and vinadya, so sounding a simhanada, that is making the sound like a lion, ityartha. So nada is from the same dhatu, nadati shabdam karoti ityartha. So simhanadam vinadya. So simhaha iva shabdam kritva ityartha. So vyakaranamshaha dadhmau dhama dhatuh tasya litlakaraha prathama purushaha ekavachanam. So sanjanayan. So sam plus janayan. Tatra sam iti upasargaha janayan jan dhatuh tasya shatra pratyayah. Okay. So sam becomes anuswara, and then there is a nyakara as the adesha, sanjanayan. So the pratipadikam bhavati takarantam. So takarantaha pullingaha sanjanayat shabdaha tasya prathama vibhaktau sanjanayan. Like kurvan. So karoti ityasya kurvan, kurvantau kurvantaha evam sanjanayan sanjanayantau sanjanayantaha iti bhavati. So pratapavan ityatrapi pratapavat iti takarantaha shabdaha pratapavan pratapavantau pratapavantaha. So pratapaha asya asti. So it is a pratyaya called matup. like buddhiman, dhanavan, gunavan, pratapavan. So pratapaha, shaktihi, balam, asya asti, iti pratapavan. Any other questions? Vinadya iti lyabantam avyayam. So vi upasargaha nad dhatuhu vinadya. So dadhmau ityasya katham prayogaha. So it is used mostly with shankha. Shankham dadhmau. So arjunaha panta devadattam dadhmau. Krishnaha panchajanyam dadhmau. So there is the further shlokas, they give a huge list of the shankhas of the different Pandavas. Madhava Pandavashchaiva Divyau Shankau Pradadhmatuhu. So dadhmau dadhmatuhu dvivachanam, because it is Krishna and Arjuna. So the next shloka. So the same thing, they blew their conscience. Dadhmau ityasya latlakare kim rupam dhamati iti rupam. Shankham dhamati, shankham dadhmau. Dhamati, dhamataha dhamanti iti latlakare rupam bhavati. Shankham dhamati. Okay. So, agrimam shlokam gachamaha. Tatashvetairhayair yukte mahatisyandane sthitau madhavah pandavashchaiva divyau shankhau pradadhmatuhu. Nandakumar.
Namaste. Maya grihapathai rupena et kradan nahi adya prayatnam karomi. Padachedaha tataha svetaihi hayaihi yukte mahati syandane sthitau madhavaha pandavaha cha eva divyau sankhau pradadhmatuhu.
Arthaha jnayate. So shvetaihi hayaihi yukte syandane. So the chariot with white horse. So tatra sthitau. Madhavaha pandavaha. Krishnaha arjunaha. Divyau shankau pradadhmatuhu. Kriyapadam.
Pradadhmatuhu.
Pradadhmatuhu iti kriyapadam.
Kriyapadam.
Prathama vibhaktihi.
Madhava pandavaha cha madhava pandavaha
sthitau madhava pandavaha sthitau iti prathama vibhakti hi
ditiya divyau shankhau.
Divyau shankau iti dvitiya vibhakti. So shankham dhamati, shankau dhamati. Dvitiya vibhakti. Tritiya vibhakti.
Nakanami.
Shvetaihi hayaihi. Ramaihi. Ramena Rama Abhyam Ramaihi. Shvetai Hayaihi. It is Tritiya.
Chaturthi Nasti. Panchami Shishti. Saptami Nasti.
Saptami. Mahati. Syandane. Yukte. Yukte Mahati Syandane. It is Saptami. Tataha Cha Eva Avyayam.
Anvayasana. Pradad kriyapadam pradadhmatuhu. Kim ke pradadhmatuhu, sankhau pradadhmatuhu.
कौ प्रदध्मतुः शङ्खौ प्रदध्मतुः
कीदृशौ शङ्खौ दिव्यौ शङ्खौ प्रदध्मतुः काभ्यां प्रदध्मतु
के कौ और अगेन कौ प्रदध्मतुः
माधवः पाण्डवः च किं कृतौ स्थितौ
कीदृशौ माधवः पाण्डवः च स्थितौ
कुत्र स्थितौ स्यन्दने स्थितौ कीदृशे स्यन्दने महति स्यन्दने अपि कीदृश महति श्वेतैः हयैः युक्ते महति स्यन्दने ततः अत्र
कदा कदा प्रदध्मतुः ततः तदनन्तरं
ततः प्रदध्मतुः अत्र अन्वय ततः श्वेतैः हयैः युक्ते माधवः पाण्डवः च एव महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः
तत् पूर्वमेव भवति ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः श्लोक इत्सेल्फ इस् इन् द आर्डर् अन्वयक्रमे एव अस्ति
अत्रापि कश्चन प्रश्नः अत्र एव आगच्छति न केवलौ माधवः पाण्डवः च इति
अर्थः तत्र विशिष्य नास्ति पादपूरणार्थं प्रायः स्यात् यतोहि नाट् वेरि सिग्निफिकेण्ट् द एव हियर् सो टु फिल् द पाद व्याख्यानेषु विशिष्टः अर्थः स्यात् बट् यूजुवलि दर् इस् नाट् मच् टु बि एडेड्
सामान्यार्थे
व्याकरणांशः पश्यामः आदौ एतद् दृष्ट्वा सो प्रदध्मतुः वादितवन्तौ सो कौ शङ्खौ वादितवन्तौ कीदृशौ शङ्खौ दिव्यौ सो दिव्यौ इति शङ्खौ इत्यस्यैव विशेषणम् सो दिव्यौ इति केनचित् पृष्टं माधवः पाण्डवः इत्यस्य विशेषणं वा इति दिव्यौ शङ्खौ शङ्खयोः एव दिव्यौ दिव्यौ नाम देवादागतं दिव्यं सो डिवैन् कान्शियस् सो तत्तु शङ्खौ इत्यस्यैव विशेषणं भवति कौ प्रदध्मतुः माधवः कृष्णः पाण्डवः अत्र अर्जुनः एव अभिप्रेतः सो कृष्णार्जुनौ स्वीयौ शङ्खौ दिव्यौ शङ्खौ कृष्णस्य शङ्खः पाञ्चजन्यः अर्जुनस्य देवदत्तः अग्रे उच्यते अग्रिमश्लोके सो तादृशौ शङ्खौ प्रदध्मतुः कीदृशौ कृष्णार्जुनौ स्थितौ अवस्थितौ विद्यमानौ कुत्र विद्यमानौ स्यन्दने रथे विद्यमानौ सो कीदृशे रथे कीदृशे स्यन्दने महति स्यन्दने सो महान् रथः सो बृहति सो महति बृहति रथे स्थितौ कीदृशे स्यन्दने युक्ते सो युक्त इस् योक्ड् रैट् युजिर् योगे टु जायिन् सो दट् विच् इस् योक्ड् वित् इत्यर्थः सो युक्ते योजिते कैः युक्ते हयैः अश्वैः कीदृशैः अश्वैः श्वेतैः सो शुभ्रवर्णैः अश्वैः संयुक्ते बृहति रथे अवस्थितौ कृष्णार्जुनौ दिव्यौ शङ्खौ वादितवन्तौ कदा ततः नाम तदनन्तरं भीष्मस्य शङ्खनादानन्तरं कृष्णार्जुनौ स्वस्य शङ्खौ वादितवन्तौ इति श्लोकस्य अर्थः. व्याकरणांशाः ततः
अव्ययम्,
ततः इति अव्ययम् श्वेतैः हयैः.
श्वेत अकारान्त पञ्चमी बहुवचनम्
पुल्लिङ्ग तृतीय बहुवचनम् श्वेतैः हयैः. सो अकारान्तः पुल्लिङ्गः तृतीया विभक्तिः बहुवचनम्
बहुवचनम् महति षष्ठी विभक्ति महत् शब्द
सप्तमी विभक्ति
सप्तमी एकवचनम्
महत् इति तकारान्तः शब्दः सो तस्य सप्तमी विभक्तौ एकवचनम्
चन्दनी अकारान्त पुल्लिङ्ग सप्तमी एकवचनम्
चन्दनम् ऐ थिङ्क् इट् इस् नपुंसकलिङ्ग जस्ट् वन् सेकेण्ड् स्यन्दनः और् स्यन्दनम् स्यन्दनम् अतः नपुंसकलिङ्गः महति युक्ते विशेषणद्वयमपि नपुंसकलिङ्गे एव भवति. सो सप्तमी विभक्तौ एकवचनम्
स्थितौ स्थितः अकारान्तपुल्लिङ्ग प्रथम द्विवचनम् माधवः पाण्डवः द्वयः अकारान्त पुल्लिङ्ग प्रथम एकवचनं च अव्यय एव अव्यय दिव्यौ दिव्यः अकारान्त पुल्लिङ्ग प्रथम द्वितीय द्विवचनं शङ्खौ शङ्खौ अकारान्त पुल्लिङ्ग द्वितीय द्विवचनं प्रदध्मतुः यथा पूर्वम् उक्तं दध्मतुः तद्
धातुः तस्य लिट् लकारः प्रथमपुरुषः द्विवचनम् दध्मौ दध्मतुः दध्मुः. सो भीष्मः दध्मौ कृष्णार्जुनौ दध्मतुः. सो अप्र इति उपसर्गः ध्मा धातुः लिट् लकारः प्रथमपुरुषः द्विवचनम्. सो युक्ते इत्यपि स्यन्दने इत्यस्य विशेषणम् अतः अकारान्तः नपुंसकलिङ्गः सप्तमी विभक्तौ एकवचनम्. अन्ये प्रश्नाः सन्ति वा? एनि अदर् क्वश्चन्स् इन् दिस्? सो ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च दिव्यौ शङ्खौ प्रदध्मतुः. ततः भीष्मस्य शङ्खनादानन्तरम् माधवः पाण्डवः कृष्णार्जुनौ श्वेतैर्हयैर्युक्ते सो शुभ्रवर्णैः अश्वैः संयुक्ते महारथे अवस्थितौ कृष्णार्जुनौ दिव्यौ शङ्खौ वादितवन्तौ. अत्र एकः प्रश्नः, सर्वेषु श्लोकेषु एका एव क्रिया भवति वा? अत्र स्थितौ इत्यपि क्रिया भवति किल इति. बह्व्यः क्रियाः भवितुम् अर्हन्ति किन्तु एकं वाक्यं चेत् एका क्रिया प्रधानभूता भवति. देर् केन् बि मल्टिपल् एक्षन्स् इन् अ सेण्टेन्स् बट् फार् वन् सेण्टेन्स् वन् एक्षन् इस् pradhana, okay, and all other actions are gauna. And the general rule is if there is a tinganta, tingantam pradhanam. So tinganta is usually, most of the cases, tinganta will take is the main kriya. So kridanta will always be a apradhana kriya. Unless there is no tinganta, then one of the kridantas can act as the main action. But if there is a tinganta, tinganta is definitely the main verb. Okay? And also you decide based on the meaning. For example, here there is sthita is being and dadmatuhu is blowing. So what is the they blew. So what is the main kriya? Blowing the shankha is the main kriya which is being given by the shloka. So Sitav just describes Madhava and Pandava. So how were they being in their chariot? They blew the conch. Okay. Ataha pradadhmatuhu ityeva atra pradhana kriya. Sandhihi atra shvetair hayair yukte. Tatra visarga sandhihi asti. Shvetaihi hayaihi yukte. Pandavashchaiva. So pandavaha cha eva. So pandavaha cha, it becomes pandavas cha. Tataha shchutva sandhihi pandavashcha. Cha eva vriddhi sandhihi chaiva. Any other questions? Ekaha prashna hasti, difference between mahati and mahati. Mahati it is strilinga shabdaha. So mahati nadi. So prathama vibhaktau ekavachanam bhavati. Mahati, mahatyau, mahatyaha iti prathama vibhakti bhavati. Atratu mahat, mahati, mahanti. Takarantaha napumsakalingaha. Tasya saptame vibhaktau mahati iti bhavati. Mahat, mahati, mahanti. Mahat, mahati, mahanti. Mahata, mahate, mahataha. Mahataha, mahatohu, mahatam. Mahati, mahatohu, mahatsu. So atra syandane ityasya visheshanam, the harasva is saptami. So atra kenachit prishtam, where can I get the Shabdamanjari? So Shabdamanjari is published by many organizations. There is the RS Vadyar Shabdamanjari. Chaukambhataha api Shabdamanjari asti. There is also, we have a Shabdarupa Sangraha, a product. So if you go to our, this one, Digital Sanskrit Guru. So we have the all Shabdas with audio and text. So tadapi asti. So if you go to our website, which is digitalsanskritguru.com. So tatra shabdarupa sangraha iti bhavati. So we have it again as both web version, downloadable version, and CD also. So sarvesham shabdanam rupani. So audio asti. So there is a repetitive mode which you can use to learn, and there is also a chanting mode. Ekam kshanam darshayami. So I just show the this one. So Shabdarupa Sangraha, so it is in 5 levels. So the first levels cover the common Shabdas, and later on you get the more rarer Shabdas. So Parayanam is just chanting, whereas Anucharanam, it is there with repetition. Say, for example, this is the Mahat Shabda, Pullinga.
Mahantam, Mahatah, mahantam mahantau mahatah mahata mahatbhyam mahatbhihi mahata mahatbhyam mahatbhihi mahate mahatbhyam mahatbhyah mahate mahatbhyam mahatbhyah mahatah mahatbhyam mahatbhyah mahatah mahatbhyam mahatbhyah mahatah mahato mahatam mahatah mahato mahatam mahati mahato mahatsu mahati mahato mahatsu.
सो एवं सर्वेषां शब्दानां एतद् भवति. सो महत् शब्द इज अ विशेषण. सो तत्तु लिङ्गत्रये अपि भवति. पुल्लिङ्गे अस्ति, स्त्रीलिङ्गे महती इति भवति, नपुंसकलिङ्गे महत् इति भवति. सो बेस्ड् आन् द विशेषण वि विल् हेव् टु डिसैड् विच् लिङ्ग टु यूस्. सो अत्र महति स्यन्दने इत्यस्ति. स्यन्दन शब्दः नपुंसकलिङ्गे अस्ति, अतः महत् शब्दः अपि नपुंसकलिङ्गे भवति. श्लोके तथा यदि रथः इत्यस्ति, महान् रथः, सो तदा तु पुल्लिङ्गे भवति. सो अत्र पुनः केनचित् पृष्टं यदि विशेष्यं त्रिषु लिङ्गेषु भवति, यदि विशेषणं केवलं नपुंसके भवति, तर्हि विशेष्यमपि नपुंसकम् इति वा इति. इफ् दट् इस् द केस् दट् इस् एक्चुलि रेर्. सामान्यतः विशेषणं भिन्नेषु लिङ्गेषु भवति, विशेष्यं विशेष्यस्य लिङ्गं स्थिरं भवति. दट् इस् द यूजुवल् केस्. तदेव एकस्य कस्यचित् पदस्य लिङ्गं ज्ञातं चेत् सो एनिथिङ्ग् विच् इस् विशेषण और् विशेष्य विल् बि इन् द सेम् लिङ्ग् इत्येव ज्ञातव्यम्. अन्य प्रश्नाः सन्ति वा? We'll stop here for today. So adya sandhihi ashtutva sandhihe niyamah jnatah bhagavad gita shlokah vidrishtah. So prahelikadikam agrima varge pashyamah. So we'll see in the next class the remaining things. Gururev jatir gurumev bhaje gurunaiva sahasmi namo gurave. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादः. होम्वर्क् दीयते. सो भगवद्गीता श्लोकाः सन्ति. सो देर् आर् एक्चुलि ऐ फोर्गोट् टु शो देम्. सो त्रयः श्लोकाः. सघोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्, नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्, अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः, प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः, ऋषिकेशं तदा वाक्यमिदमाह महीपते, सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत. सो यु टु नोट् हियर् दट् देर् आर् त्री लैन्स् विच् विल् हेव् टु बि टेकन् टुगेदर् बिकास् द क्रिया इस् देर् इदम् आह. सो द सेण्टेन्स् इस् इन्कम्प्लीट् इन् द श्लोक. सो वाक्यत्रयम् अथवा श्लोकस्य पङ्क्तित्रयं योजयित्वा अन्वयः कर्तव्यः. द लास्ट् पाद विल् स्टाण्ड् इण्डिपेण्डेण्ट्. सो सन्धेः अभ्यासः अपि अस्ति. कुर्वन्तु, अग्रिमवर्गे चर्चां कुर्मः. धन्यवादः.